अहं रुद्रेभिः वसुभिश्चराम्यहं आदित्यैरूत विश्वदेवैः अहं मित्रावरुणो भादीभरणहं इन्द्रजनीयहमश्विनोभा अहं सोममाहानसं विभरण्यहं त्वष्टारमूतभूषणं भगं अहं दधामि द्रवीणं हविष्मते सुप्राव्ये यजमानाय सुन्नते अहं रश्मिसङ्गममी वसूनां चिकित्सीव्रथमा यज्ञानां तामादेवावदधु पुरुत्रा भूरिस्थत्रं भूर्यावेशयन्ति मया सुवन्नमत्ति योगी पश्यति यः प्राणीति ज इन्द्रेणोक्तम् अमन्तवमान्त उपक्ष्यन्ति श्रुधिश्रुतसद्धीवन्तीर्वदामि अहमेव स्वयमिदं वदामि दुष्टन् देवेभिरूतमांसेभिः यं कामये तं तमुग्रं क्रीणोमि तं ब्रह्माणं तं ऋषिं तं सुमेधम् अहं रुद्राय धनुरापनोमि ब्रह्मदिविशे सररेहन्त बाहु अहं जनाय समदन् क्रीणम्यहं द्यावा पृथिव्यानिवेश अहं सूरे पीतरमश्यमूर्धन् मम योनि रप्सन्तः समुद्रे ततो वितिष्ठे भुवनानुविश्व कामं व्यन्वस्म णोपस्पृशामि अहमेव वातैव प्रवम्य रभमाणा भुवनानि विश्वा करोति वा पर एना पृथिव्यै तावति महीना सम्बभूव ॐ तत्सत् इति ऋग्वेदोक्तं देवी सूक्तं समाप्तम्।